पिबासोमम् महत इन्द्रियाय पिबाधृत्राजहन्त वेदविष्ट पिबरायेशवसे भूयमानः पिबमद्धस्त्रिपदिन्द्रावृषस्व अस्य पिबक्षुपदः प्रस्थितस्येन्द्रसोमस्य परमासुतस्य स्वस्ति रामनासामादयस्वार्वाचीनो रेवते सौभगाय ममत्तत्त्वा दिव्यः सोमा इन्द्र मम त्वयः सूयते पार्थिवेषु मम द्वयेन परीवश्च कर्थ मम द्वयेन निर्नासि शत्रून् आद्विवर्गा अभिनो यात्मिन्द्रो मृषाहरिभ्याम् परीषित्तमन्धाः द्रव्यासुदस्य प्रभृतस्य मध्वः सत्राखेदाः मरुषः वृषस्व निदिग्मानि भ्रासयन् भ्रास्यान्यवस्थिरादनुगियातु यूनाम् उग्राय ते सहोफलम् ददामि प्रतीत्या शत्रोऽन्विगदेषु वृश्च या हर्ययिन्द्रदमिभिस्रभांशो यस्तिरेव धन्वनोऽभिमादीः अस्मद्रग्वावृधानः सहोभिरनीभिष्टस्तन्वम् वाभिधस्व इदम् हविर्माघवम् तुभ्यम् रातम् प्रदीशम् रामघृणानोजुभाय तुभ्यम् सुतोमाघवम् तुभ्यम् पक्वोद्धीन्द्रपिबाजप्रस्थितस्य अद्धीदिन्द्रप्रस्थिते मा हवीम् शितनो दधिष्वपचतो दसोमम् प्रयस्वन्तः प्रतिहर्यामसित्वा सत्याः सन्तु यजमानस्य कामाः रेन्द्राग्निभ्याम् सुवचस्यामि यन्मि सिन्धामि भग्रेरयम् नावमर्कैः अया इव परीचरन्ति देवाय अस्मभ्यम् धनदा उद्भिदश्च।